नृसिंहकवचं वक्षे प्रह्लादेनोदितं पुरा सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं सर्वसंवत्सरं चैव स्वर्गमोक्षप्रदायकम् ज्ञात्वा नृसिंहं देवेशं खेमसिंहासनस्थितं विवृदास्यं त्रिनयनं शरदिन्दुसमप्रभं लक्ष्म्यालिङ्गितवामागं विभूतिपुरुवाश्रितं चतुर्भुजं कोमलाकं स्वर्णकुण्डलशोभितं सरोजशोभितोरस्कं रत्नकेयूरमुद्रितं तप्तकाञ्चनसङ्काशं वीरनिर्मलवाससम् इन्द्रादिसुरमौलिस्तुरन्माणिक्यदीप्तिभिः विराजितपदद्वन्द्वं सङ्गचक्रादिभेदिभिः गरुत्मना च विलयात् दूयमानं मुदान्वितम् स्वहृत्कमलसंवासं कृत्वा तु कवचं भटेत् नृसिंहो मे शिरपादो लोकरक्षार्थसम्भवः सर्वगोपीस्तम्भवासा भारं मे रक्षतु ध्वनिम् नृसिंहो मे दृशौ पादु सोमसूर्याग्निलोचनः स्मृतिं मे पादु नृहरिमुनिवर्यस्तुतिप्रियः नासं मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः सर्वविद्यादिपः पादु नृसिंहो रसना मम वक्त्रं पात्युन्दुवदनं सदा प्रह्लादवन्दितः नृसिंहपादु मे कण्डं कन्दौ भूबलान्धकृत् दिव्यास्त्रशोभितभुजौ नृसिंहपादु मे भुजौ करौ मे देववरदो नृसिंहपादु सर्वतः हृदयं योगि साध्यच्च निवासं पादु मे हरिः मद्यं पादु हिरण्याक्ष वक्षकुक्षिविदारणः नाभिं मे पादु मृहरि स्वनाभिब्रह्म संस्तुतः ब्रह्माण्डकोडाय गत्यं यस्यासौ पादु मे कटिम् गुह्यं मे पादु गुह्यानां मन्त्राणां गुह्यरूपदृक् भूरो मनोभवः पादु जानुनी नररूपदृक् जङ्गे पादु दरापारहर्तायोऽसौ नृगेसरि सुरराज्यप्रदः पादु पादौ मे नृषधीश्वरः सहस्रशीर्षा पुरुषः पादु मे सर्वशस्तनुम् महोग्रः पूर्वदः पादु महावीराग्रयोग्निदः महाविष्णुर्दक्षिणेतु महाज्वालस्तु नैर्यतौ पश्चिमे पादु सर्वेषु दिशि मे सर्वतोमुखः नृसिंहपादु वायव्यां सव्याम्भूषण विग्रहः ईशान्यां पादु भद्रो मे सर्वमङ्गलदायकः संसारभयदः पादु मृत्योर्मृत्युर्नृगेसरि इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् भक्तिमान्यः पडे नित्यं सर्वपापैः प्रमुच्यते पुत्रवान् धनवान् लोके दीर्घायुरुपजायते यं यं कामयते कामं तं तं प्राप्नोत्य संशयम् सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् भूयन्दरीक्ष दिव्यानां ग्रहाणां विनिवारणम् वृश्चिकोरकसङ्गोदा विशापकरणं फलम् ब्रह्मराक्षसयक्षाणाम् दूरोत्सारणकारणम् भूर्जे वातालपात्रे वा कवचम् लिखितम् शुभम् करमूले धृतम् येन सिद्धेयुः कर्म सिद्धयः देवासुरमनुष्येषु स्वं स्वमेव जयम् लभे एकसन्ध्यम् त्रिसन्ध्यम् वायः पडे नियतो नरः सर्वमङ्गलमाङ्गल्यम् भुक्तिम् मुक्तिम् च विन्दति द्वात्रिंशतिसहस्राणि पठेत् शुद्धात्मनां नृणाम् कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिप्रजायते अनेन मन्त्रराजेन कृत्वा भस्माभिबन्धनम् तिलकम् विन्यसेद्यस्तु तस्य ग्रहभयम् हरेत् त्रिवारम् जपमानस्तु रक्तम् वाजभिमन्त्रिण प्राशयेद्यो नरो मन्त्रम् नृसिंहध्यानमाचरेत् तस्य रोगा प्रणश्यन्ति येजस्युकुक्षि सम्भवः इमत्र वधुनोक्तेन नृसिंहसदृशो भवेत् मनसा चिन्तितम् यत्तु सदच्चाप्नोत्य संशयम् गर्जन्तम् गर्जयन्तम् निजकुजपटनम् स्फोटयन्तम् हटन्तम् रूप्यन्तम् तापयन्तम् गिरिजम् लेपयन्तम् क्षिपन्तम् क्रन्दन्तम् रोचयन्तम् दिशि दिशि सततम् संहनन्तम् फलन्तम् वीक्षन्तम् कूर्णयन्त्रम् कर्णिकरशैल दिव्यसिंहम् नमामि। इति श्रीब्रह्माण्ड पुराणे प्रसादोक्तम् श्रीनृसिंहकवचम् सम्पूर्णम्।